ॐ अथ मन्युसूक्तम् यस्ते मन्यो वेदत्वज्रसाजकसहवोचः पुष्यति विश्वमानुषक् साह्यामदासमार्यन्त्वया आयुजा सहस्कृतेन सह सा सहस्वता मन्युरिन्द्रो मन्युरेव स देवो मन्युर्होता वरुणो जातवेदाः मन्युं विष ईलते मानुषीर्याः पाहिनो मन्यो तपसा सजोषाः अभि ईः मन्यो तपसस्तवी यान्तपसा युजाभिजहि शत्रून् अमित्रः वृत्रः दस्युः च विश्वावसून्या भारात्वन्नाः त्वं हि मन्यो अभिभूत्योजा स्वयम्भूर्भामो अभिमातिशाहः विश्वजर्षणिः सहोरिः सह आवानस्मा स्वोजः प्रतानासुधेहि अभागस्सन्नपपरे एतो अस्मितवक्रत्वा आतमिषस्य प्रचेतः तन्त्वा मन्यो अकृदुर्जीहीळाहं स्वातनोर्बलधेया आयमेहि अयन्ते अस्मिपमे खर्वाङ् प्रातीचीनः सहुरे विश्वधायः मन्यो वज्रन्नभिमामावृत्स्वहना वदस्योऽङ्कृतबोध्यापेः अभिप्रेः दक्षिणतो भावा मेधा वृत्राणि जङ्घना बभूरि जुहोमि ते धरुणं मध्वो अग्रमभावूपां सुप्रथमाविभाव त्वयाः मन्यो सरथमारुजन्तो हर्षमानासो दृशितामारुत्वः तिक्मेषाव आयुधा संशिषा आना अभिप्रयन्तु नरो अग्निरूपाः अग्निरीव मन्यो त्विषितस्सहस्वसेनानिर्नः सहुरे हूतये एधि हत्वा विशत्रून् विभाजस्ववेद ओजो मिमानोऽभिमृधो ओणुदस्व सहस्वमन्यो अभिमा आतिमस्मे रुजन् मृणन् प्रमृणन् प्रेहि शत्रून् उग्रन्ते पाजो नन्वारुरुद्रे वशीवशन्नयस एकजत्वम् एको बहूनामासि मन्यवेलितो विषं विषंयुधये संशेषाधि अकृत्तरुक्त्वया आयुजा वयं जुमन्तं घोषं विजया जागृण्महे विजयचकृदिन्द्रायवाणवभ्रवोऽस्माकं मन्यो अधिपा भवेह प्रियन्ते नाम सहुरे गृणीमसि विद्मातमुत्संयता आबभूथ आभूत्या सहजा वज्रसाजिकसहो अविभर्ष्य विभूत उत्तारं कृत्वा आनो मन्यो सह मेध्येधि महाधनस्य बुरुहूत संसृजे संसृट्टन्धनामुभयं समाकृतमस्मभ्यं दत्तां वरुणश्च मन्योः भियं तथा आनाहृदा जेषुशत्रावः परा आदिदासो अपनिलायन्ताम् ॐ